Lesson 19, Exercise 2, pages 161 through 163. Etasya samrajah parishadi shvaha sarve ritvijah ruchah patishyanti. Parivrajah api ruchah patanti. Kintu ritvijah eva ruchah patitva sampadam labdhum ichanti. Parivrajah tu sampadam apadam eva manyante. Te vadanti ete ritvijah vanijah eva. Yatha vanijah dhanam ichanti. Tathaiva ete ritvijah api dhanaya ruchah patanti iti. Yada samraja arayah parajiyant. Tada tesham arinam bharyas sarvasu dikshu adhavan. Yada samrat alakshendraha bharata desham ajayat. Tada satatra bahun parivrajah apashyat. Tesham parivrajam vidyam tapahacha drushtva prasannaha saha bhubrut. Kamschit parivrajah ग्रीस देशम नेतुम ऐच्छत ते परिव्राजः तम भूभृतम अवदन हे अलक्षेन्द्र त्वम एतस्य जगतस सम्राट भवसि इति जनाः कथयन्ति किन्तु वयम् अस्माकं मनसाम सम्राजः भवामः यदा सूर्यः अस्तम गच्छति तदा सर्वत्र जगति तमः प्रसरति सम्राट अपि त्वं तत्तमः नाशयितुं न समर्थः अस्माकं तु मनसि रात्रेः तमसा तमः नैव जायते तद्वद कः सम्राट त्वं वा वयं वा इति एतां गिरम् अवगम्य अलक्षेन्द्रः तान् परिव्राजः प्राणमत् न्यवर्तत च यथा वियति चन्द्रमाः तथा एतस्मिन् जगति सः सम्राट् यावत् सरितः सरिष्यन्ति यावत् चन्द्रमाः वियतो भूमौ न पतिष्यति यावत् च मरुतां शक्त्या पर्वताः न नङ्क्ष्यन्ति तावत् एतस्मिन् जगति मम काव्यानि सुमनसाम गिरः भूषयिष्यन्ति इति भाषित्वा सः कविः अम्रियत तस्य कवेः मरणादनन्तरं जनास्तस्य कवेः काव्यानि तस्य शरीरेण सह एव अवादहन् काव्यानि पठित्वा वणिजः न तुष्यन्ति न वा धनं लब्ध्वा परिव्राजः यहा यद इच्छति तद एव लब्ध्वा तस्य चेतः प्रसीदति चंद्रमसं उषसं ज्योतींषि च दृष्ट्वा मम मनः मोदते एतत् जगत् वेधसः काव्यम् एव यदा सर्वासु दिक्षु सुमनसः एतत् काव्यं पश्यन्ति तदा ते वेधसं प्रशंसन्ति वणिजः भिषजः ऋत्विजः च जनानां धनैः वर्धन्ते यदा आपदः जनान् पीडयन्ति तदा ऋत्विजां सम्पदः वर्धन्ते यदा रोगाः जगति प्रवर्तन्ते तदा भिषजां सम्पदः अपि वर्धन्ते ये जनाः रोगैः न म्रियन्ते ते जनाः भिषग्भ्यः सर्वं धनं दत्त्वा क्षुधा म्रियन्ते जनाः सर्वदा अधिकम् अन्नं खादन्तु इत्येव वणिजः वेधसम् अर्थयन्ते यदा अरीणाम् इषुभिः सम्राजः उरः भिन्नम् तदा सर्वेषां विषां चेतांसि शुचा पर्यभूयन्त चन्द्रमाः एव वियतः भूमौ पतति इति सुमनसः अमन्यन्त पशूनां शक्त्या पर्वतः एव नश्यति इति सर्वे जनाः अचिन्तयन्। एते अरयः पुरं प्रविश्य सर्वाणि गृहाणि धक्ष्यन्ति इति चिन्तयित्वा सर्वे जनाः धनूंषि आदाय पुरं रक्षितुं द्वारि अतिष्ठन्। कस्य सुमनसः मनः उषसं दृष्ट्वा न प्रसीदति? कस्य सुमनसः चेतः सुमनांसि दृष्ट्वा न तुष्यति? चन्द्रमसं दृष्ट्वा यथा सुमनांसि मोदन्ते, तथा सुहृदं दृष्ट्वा सुहृदां मनांसि मोदन्ते। वणिजः भिषजः ऋत्विजः च न कदापि सुहृदः भवेयुः। जनानाम् आपद्भिः येषां सम्पदः वर्धन्ते, कथं ते सुहृदः भवेयुः? ये जनाः मतिं विना एव गिरः वदन्ति, ते कवयः भवन्ति इति परिव्राजः कवीन् निन्दन्ति। कवयः तु भाषन्ते, यथा रात्रौ वियत्तमसा परिभूयते, तथा एतेषां परिव्राजा मनः तपसा परिभूयते। यथा अन्धाः चन्द्रमसा न मोदन्ते, तथा एते परिव्राजः काव्येन न तुष्यन्ति। जगति एक एव ईश्वरः इति ते मन्यन्ते, किन्तु अस्माकं काव्यस्य जगति वयमेव वेधसः ईश्वराः च। यथा यथा वयम् इच्छामः, तथा तथा एतज्जगत् काव्ये परिवर्तते इति। उषसि ऋत्विजः ऋचः पठित्वा देवेभ्यः हवींषि प्रयच्छन्ति, देवाः च हविर्भिः तुष्यन्ति। देवाः स्वर्गे वसन्ति, ऋत्विजः तु भूमौ। स्वर्गः च वियतः उपरि इति जनाः मन्यन्ते। कथं तर्हि देवाः ऋत्विजां हवींषि लभन्ते? ऋत्विजः हवींषि अनिले प्रक्षिपन्ति, अनलात् धूमः जायते, स च वियति स्वर्गं च गच्छति। एवम् अनलः ऋत्विजां हवींषि देवान् प्रति नयति इति जनाः मन्यन्ते। सम्राजः परिषदि सः कविः एतां वाचम् अवदत्। हे देव, एतस्मिन् जगति त्वम् एव चन्द्रमाः, तव यशसः ज्योतिषा एव वियति सूर्यः अपि प्रकाशते। अतः एव कवीनां गिरः त्वाम् एव शंसन्ति, न अन्यम् इति। एतया गिरा प्रसन्नः सः भूभृत् तस्मै कवये बह्वीः सम्पदः प्रायच्छत्। सम्पदः लब्ध्वा प्रसन्नः सः कविः गृहं गत्वा भार्यायै अवदत्, हे भार्ये, पश्य, मूर्खम् अपि तं भूभृतं यदा अहं काव्यैः अशंसम्, तदा सः मह्यं बहु धनं प्रायच्छत्। यदि अन्ये अपि मूर्खाः मह्यं धनं यच्छेयुः, तर्हि तान् अपि अहं शंसिष्यामि इति।